अस्तु, सन्धिविषये पाठः प्रवर्तमानः अस्ति. अस्माभिः सन्धिविषये गीताप्रवेशस्य प्रथमपाठः समाप्तः. अधुना सूत्रसहितपरिचयः भवति सन्धीनाम्. आरम्भे स्वरसन्धेः परिचयः, तदनन्तरं हल्सन्धीनां परिचयः इति. तदर्थं तस्मात् पूर्वम् एकं करपत्रं पठामः. पाणिनीयं सूत्रं कथं पठनीयम् इति करपत्रमस्ति. किञ्चित् आरब्धवन्तः गतवर्गे. तत्र करपत्रस्य आरम्भे सन्धिकरणसमये कीदृशानि कार्याणि भवन्ति इति अत्र करपत्रस्य आरम्भे प्रदर्शितमस्ति. आदेशः, आगमः, लोपः इति कार्यत्रयम् अत्र प्रदर्शितं. प्रकृतिभावः इति इतोपि एकं कार्यमस्ति. तर्हि प्रत्येकं कार्यम् एकेन सूत्रेण विहितं भवति. अत्र उदाहरणत्वेन यण् सन्धि इति एकं कार्यम्, इकारस्य स्थाने यकारः इति एकं कार्यं, तत् कार्यम् एकेन सूत्रेण विहितम् अस्ति, इकोयणचि इति सूत्रम्. तर्हि तत् सूत्रं कथं पठनीयम्? इकोयणचि इत्यस्मिन् सूत्रे वयं पश्यामः यत् इकः इति षष्ट्यन्तम् अस्ति, यण् इति प्रथमान्तम्, अचि सप्तमन्त्यं, तस्य अर्थः कः इत्यादिकम् अद्यतनविषयः अस्ति. अस्तु, तर्हि आरम्भे आरभामः. तर्हि नूतनाः के के सन्ति?
पुष्पा भगिनी,
पुष्पा भगिनी, अनन्तरम्
अभिनवः,
अभिनव महोदय, अनन्तरं नमो नमः,
सहदेव,
अनन्तरं
भगिनी, अहं सावित्री,
सावित्री भगिनी. अस्तु, तर्हि आरम्भं कुर्मः. पाणिनेः सूत्राणां पद्धतिः इति करपत्रं, करपत्रे प्रथमबिन्दुः. अधुना वयं पाणिनीयं सूत्रं कथं पठनीयम् इति पश्यन्तः स्मः. तत्र पाणिनेः सूत्राणां पद्धतिः इति प्रथमबिन्दुः, तस्मात् आरभ्य. लक्ष्मी भगिनी पठति वा?
प्रथमतया भगिनि,
पाणिनी सूत्राणां पद्धतिः,
पाणिनेः सूत्राणां पद्धतिः. पाणिनेः प्रमुखलक्ष्यम् अस्ति.
एकनिमिषं, सर्वे प्राप्तवन्तः वा यत्र भगिनी पठति अधुना? करपत्रमस्ति, पाणिनीयसूत्रं, पाणिनीयं सूत्रं कथं पठनीयम् इति. ये केऽपि विलम्बेन आगतवन्तः, तत्र प्रथमबिन्दुं लक्ष्मी भगिनी अधुना पठति. अस्तु भगिनि.
पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः. पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि. अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. येषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति. तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः. षष्टिविभक्तिः इत्युक्ते स्थाने, प्रथमविभक्तिः इत्युक्ते आदेशः, आगमः, नामकरणम्. सप्तमीविभक्तिः इत्युक्ते पूर्वकार्यम्. पञ्चमीविभक्तिः इत्युक्ते परकार्यम्. तृतीयविभक्तिः इत्युक्ते संयोजनम्.
किञ्चित् वदति वा भगिनि सारांशत्वेन?
अत्र पाणिनेः सूत्राणां पद्धतिः का इति विषये उक्तमस्ति. अत्र पाणिनेः निमित्तं
न भगिनि, पाणिनीयं सूत्रं कथं पठनीयं तु अत्र पठन्ति.
प्रथमतया अत्र किमस्ति चेत् पाणिनेः प्रमुखलक्ष्यमस्ति, लक्ष्यमित्युक्ते गोल् लक्ष्यमस्ति, पदानि कथं निष्पन्नानि भवन्ति इति वयं ज्ञातुं शक्नुमः. पाणिनेः सूत्राणां द्वारा पदानि कथं निष्पन्नानि इति वयं ज्ञातुं शक्नुमः. तदर्थमेव सः सूत्राणि विरचितवान्. सूत्रेषु विशिष्टकार्याणां विषये बहूनि सूत्राणि
कार्याणां विषये सङ्केतः दीयते अथवा
कार्याणां विषये सङ्केतः दीयते. कुत्रचित् कश्चन वर्णस्य स्थाने अन्यवर्णः आगच्छति, कस्मिंश्चित् सूत्रे कश्चन वर्णः लोपः लुप्तः भवति, अनन्तरं कश्चन सूत्रे कश्चन वर्णः नूतनः वर्णः आगतः इत्यादीनि कार्याणि भवन्ति. एषां कार्याणां विषये विभक्तयः योजिताः भवन्ति, परन्तु वयं विभक्तेः विषये वयं ज्ञातुं वयं जानीमः, परन्तु अत्र विभक्ति अर्थः किञ्चित् भिन्नः अस्ति. पाणिनीयसूत्रेषु विभक्तेः अर्थः भिन्नः. सूत्रेषु विभक्तीनाम् अर्थाः के इति अत्र दत्तमस्ति. अत्र यदि सन्धिकार्यविषये षष्ठीविभक्तिः आगच्छति चेत् तत्र
सन्धिकार्य समीचीनं भगिनि, भवत्या यत्किमपि उक्तं समीचीनमेव. लोके विभक्तेः अर्थः भिन्नः, पाणिनीयसूत्रे विभक्तेः अर्थः भिन्नः खलु इति अस्ति. तर्हि सन्धिविषये सूत्राणि न, प्रत्येकस्मिन् सूत्रे पाणिनीयसूत्रे एतादृशः अर्थः अस्ति विभक्तीनाम्. अर्थं पठतु.
षष्टिविभक्तिः इत्युक्ते स्थाने सूत्रे यस्य वर्णस्य अथवा प्रत्याहारस्य षष्टिविभक्तिः भवति सः स्थाने भवति. इत्युक्तौ तस्य स्थाने अन्यवर्णः आयाति. कः वर्णः आयाति तस्य स्थाने? तस्मिन् एव सूत्रे यः वर्णः अथवा यः प्रत्याहारः प्रथमाविभक्त्यन्तः सः. उदाहरणार्थम् इको यणचि, इकः स्थाने यण् आदेशः भवति. इकः षष्ट्यन्तं, यण् प्रथमान्तम्, इकः यण् अचि संहितायाम् इति अनुवृत्तिसहितसूत्रम्.
हा, तर्हि अधुना भगिन्या यत् पठितं तद् षष्टिविभक्तिः स्थाने इति उक्तमस्ति खलु करपत्रे. स्थाने इत्युक्ते किम् इत्यस्य अर्थः अस्ति. तर्हि यस्य वर्णस्य अथवा प्रत्याहारस्य षष्टिविभक्तिः सः स्थाने इति उच्यते. इको यणचि इत्यस्मिन् स्थाने इति कः भगिनि?
स्थाने इत्युक्ते भगिनि पुनः वदत्.
इदानीं षष्टिविभक्तिः इत्युक्ते स्थाने इति उक्तवती खलु. तर्हि इको यणचि इति सूत्रमस्ति. इको यणचि इत्यस्मिन् सूत्रे षष्टिविभक्तियुक्तं किमस्ति तत्र?
इकः.
हा, इकः इति अस्ति. इक् इति प्रत्याहारः. इक् प्रत्याहारस्य षष्टिविभक्त्यन्तरूपम् इकः, यथा जगत् जगतः हलन्तशब्दः खलु, तद्वत् इकः षष्ट्यन्तम् अस्ति. षष्टिविभक्तिः इत्यस्य अर्थः स्थाने इति. तर्हि अत्र यस्य कस्यापि षष्टिविभक्तिः भवति सः स्थानी इति उच्यते. इत्युक्ते तस्य स्थाने इक् प्रत्याहारस्य वर्ण प्रत्याहारस्य वर्णस्य स्थाने किमपि भवति इति सूचना लभ्यते इकः इति अस्य दर्शनेन, षष्टिविभक्तेः दर्शनेन. तस्य स्थाने कोऽपि वर्णः आगच्छति चेत् तादृशप्रयोगः भवति. अस्तु, इको यणचि इति सुप्रसिद्धं सूत्रमस्ति अस्माकम्. अस्य अर्थः इकः स्थाने यण् आदेशः. यण् अपि एकः प्रत्याहारः, अच् अपि एकः प्रत्याहारः. अच् इति सप्तम्यन्तम् अस्ति, अचि इति. यथा जगत् इति शब्दः हलन्तशब्दः अस्ति, तस्य सप्तम्यन्तमस्ति जगति इति अत्र अस्ति. अस्तु, अस्मिन् सूत्रे इक् इत्यस्य षष्ट्यन्तमिति. अग्रे भगिनि, इदानीं वयं जानीमः षष्टिविभक्ति इत्युक्ते स्थाने इति. तर्हि कस्य स्थाने किमपि भवति चेत् कार्यं, तस्य षष्टिविभक्ति. अधुना प्रथमा विभक्ति इत्युक्ते किं सूत्रेषु? अग्रे भगिनि.
प्रथमाविभक्तिः इत्युक्ते आदेशः, आगमः अथवा नामकरणं. सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति सः आयाति षष्टिविभक्त्यन्तस्य वर्णस्य स्थाने. तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम आदेशः. सूत्रे तादृशः षष्टिविभक्त्यन्तः वर्णौ नास्ति चेत् तर्हि सः प्रथमाविभक्त्यन्तः वर्णः आयाति, किन्तु अपरस्य वर्णस्य स्थाने इति न. अतः तस्य नाम आगमः. अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका.
वदतु भगिनि.
प्रथमाविभक्ति इत्युक्ते आदेशः, आगमः अथवा नामकरणं. सूत्रे यत्र कुत्रापि प्रथमाविभक्त्यन्तपदम् आगच्छति तत्र वयं ज्ञातुं शक्नुमः तत्र आदेशः, कश्चन नूतनवर्णस्य आदेशः अथवा कस्यचित् वर्णस्य स्थाने अन्यवर्णस्य आदेशः अथवा नूतनवर्णस्य आगमः भवति, अथवा नामकरणम् इत्युक्ते.
हा, अग्रे पश्येम नामकरणम् इत्युक्ते. हा, संज्ञाकरणं.
समीचीनं
भगिनी. वयम् इदानीं वयं जानीमः, इति वयं जानीमः. अधुना इको यणचि इति सूत्रं परिशीलयतु. तत्र षष्टिविभक्ति कस्य, प्रथमाविभक्तिः कस्य इत्यादिकम्.
इकः षष्ट्यन्तम् इत्युक्ते इकः षष्टिविभक्त्यन्तं रूपं, यण् प्रथमान्तम्. इकः स्थाने यण् आदेशः भवति. यण् प्रथमान्तम् अस्ति, तदर्थं यण् प्रत्याहारस्य वर्णाः आदेशाः भवन्ति इति इति तस्य अर्थः.
हा, समीचीनमस्ति भगिनि. तर्हि प्रथमाविभक्त्यन्तं यद्भवति तद् आदेशः, आगमः अथवा नामकरणम् इति उच्यते. अत्र इको यणचि इत्यस्मिन् इकः स्थाने यण् आदेशः भवति. अचि ध्वनिः आगच्छन् अस्ति कुतश्चित्. अस्तु, इति अस्ति. तर्हि हा, इक् इति प्रत्याहारः, तेन इक् इत्यनेन प्रत्याहारेण के के वर्णाः गृहीताः? अभिनवमहोदय वदति वा.
क्षम्यतां भगिनि.
हा, इदानीं वयं किं सूत्रं पश्यन्तः स्मः? इको यणचि इति सूत्रम् इदानीं भगिनी उक्तवती खलु. तत्र तस्मिन् सूत्रे इक् इति एकः प्रत्याहारः, यण् इति एकः प्रत्याहारः, अच्चपि एकः प्रत्याहारः. तर्हि इक् प्रत्याहारे के के वर्णाः? पञ्चमपुटं पश्यतु पुस्तके.
इक् इत्युक्ते इ उ रि लृ.
इति इक् अस्ति. तर्हि इकः इत्युक्ते इक् प्रत्याहारस्य वर्णस्य स्थाने यण् आगच्छति इति सूत्रं वदति. यण् प्रत्याहारे,
यण् प्रत्याहारे य वा र ल,
य वा र ल इति यण् प्रत्याहारस्य वर्णः. तर्हि क्रमेण इक् प्रत्याहारस्य वर्णानां स्थाने यण् प्रत्याहारस्य वर्णाः आगच्छन्ति इति. इकारस्य स्थाने यकारः, उकारस्य स्थाने वकारः, ऋकारस्य स्थाने रकारः, लृ इत्यस्य लकारः इति अस्ति. कदा इत्युक्ते अचि इति उक्तम्. अचि इति सप्तम्यन्तम् अस्ति. यदा अच् वर्णः, अच् प्रत्याहारस्य कश्चन वर्णः परः अस्ति चेत् तदा इति सूचना लभ्यते विभक्तीनां द्वारा इति अस्ति. अस्तु, आदेशः, आगमः, नामकरणं प्रति प्रथमाविभक्तेः अर्थः इति भगिनी उक्तवती. अस्मिन् सूत्रे यण् इति प्रथमाविभक्त्याम् अस्ति. तर्हि यण् इति आदेशस्य सूचकः प्रथमाविभक्त्यन्तम्. आगमः इत्युक्ते वयं जानीमः आगमः कस्यचित् स्थाने न आगच्छति, किन्तु पूर्वं वा परं वा आगच्छति. तादृशकार्यम् आगमः इति उक्तमस्ति. आगमस्य उदाहरणत्वेन एकं सूत्रमस्ति. अग्रे राजी भगिनी पठति वा?
आं भगिनी, पठामि. प्रथमा विभक्तिः आदेशः, आगमः, नामकरणं सूत्रे. ओके, आदेशः इको
तदपि भगिनी पठितवती. अग्रे, ततः अग्रे गच्छतु.
आगमः लुङ् लङ् लृङ् ष्वडु दात्तः. लुङ् लङ् लृङ् च परे चेत् धातुरूपी अङ्गस्य अट् आगमो भवति. लुङ् लङ् लृङ्क्षु सप्तम्यन्तम्, अट् प्रथमान्तम्, उदात्तः प्रथमान्तम्. अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ्क्षु 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 आयोगः पट् योगः तकारः अपठत्. अग्रे पठामि वा अथवा
किञ्चित् बुद्धं खलु? अत्र आगमस्य उदाहरणमस्ति. अस्मिन् सूत्रे लुङ् लङ् लृङ्क्षु अड् उदात्तः इति उक्तमस्ति. तर्हि सन्धिविषयकसूत्रं नास्ति, परन्तु वयं जानीमः खलु लङ् लकारः तु सुपरिचितः एव. अपठत्, अगच्छत्, अगच्छन् इत्यादिकं. तत्र सर्वत्र अकारः दृश्यते क्रियापदेषु खलु. सः अकारः आदेशः वा आगमः वा भगिनि?
आगमः.
आगमः व्याकरणं, हा वदतु भगिनि.
अकारः ऋङ्लकारे, लङ्लकारे, ऋङ्लकारे अकारः धातोः पूर्वम् आगच्छति आगमरूपेण.
हा, समीचीनम्. आगमः अत्र सूत्रे वयं पश्यामः लङ् लङ् लृङ्क्षु इति तु सप्तमी अस्ति खलु. हा, इति सप्तमी विभक्तिरूपम् अस्ति. अट् इति आगमः, अकारस्य नाम, यः अकारः अत्र आगच्छति तस्य नाम अट् इति. अट् इति आगमः आगच्छति एषु स्थलेषु इति सूत्रं वदति. अत्रापि अट् इति प्रथमान्तम् अस्ति. तर्हि यत्र कुत्रापि प्रथमान्तं भवति सूत्रे आदेशः, आगमः, नामकरणम् अग्रे पश्येम. अन्यत् किमपि अस्ति वा भगिनि?
अत्र भगिनी, अत्र भगिनी कित् कित् कथं स्थानं पूर्व या परे वा अस्ति कथं जानीमः?
हा तद् तदर्थमपि सूत्राणि सन्ति भगिनि खलु. अट् इति आगमः, अट् इति आगमे चकारः गच्छति, अकारः एव तिष्ठति, वयं जानीमः एव. तदर्थं खलु आद्यन्तौ टकितौ
विद्यार्थितौ.
हा तेन जानीमः आगमः कुत्र आगच्छति इति. आगमः कस्यचिदपि स्थाने न आगच्छति, पूर्वं वा परं वा आगच्छति यस्य कस्यापि आगमः इति वार्ता. अस्तु राजी भगिनी अग्रे.
नामकरणं सुप्तिङन्तं पदम्, सुबन्तं च तिङन्तं च पदसंज्ञकौ भवतः. इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति. सुप्तिङन्तं प्रथमान्तं, पदं प्रथमान्तं. रामयोगः सु रामः, रामः इत्यस्य अन्ते सु इति सुप्रत्ययः अस्ति. सुप् सुप् अन्ते यस्य सः सुबन्तं, सुबन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. वद् योगः आ योगः ति वदति, वदति इत्यस्य अन्ते ति इति तिङ् प्रत्ययः अस्ति. तिङ् अन्ते यस्य सः तिङन्तं, तिङन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. सुप् इत्युक्ते पुस्तके दशम पुटे यदि वयं पश्यामः चेत् सु आरभ्य युप् पर्यन्तं.
एकनिमिष भगिनि, एकनिमिष. भगिनी समीचीनतया उक्तवती, दशमपुटं पश्यन्तु कृपया सर्वे पुस्तके. अस्तु भगिनि वदतु इदानीं.
दशमपुटे सुबन्ताः इति एकं शीर्षकमस्ति. अधः सुप् अन्ते यस्य सः सुबन्तः, सुप्रत्याहार सु आरभ्य सुप् पर्यन्तं एकविंशतिः सुप्रत्ययाः सन्ति. तस्य नाम सुबन्तः इति वदामः. तादृशं तिङ् प्रत्ययः ति आरभ्य महि इङ् पर्यन्तं अष्टादशप्रत्ययाः सन्ति. तिङ् प्रत्ययः इति तस्य नाम. उदाहरणार्थं रामयोगः सु प्रथमा विभक्तिः सु सु रामयोगः सु रामः, रामः इत्यस्य अन्ते सु अस्ति, अतः सुबन्तम् इति उच्यते. द्वितीय उदाहरणं तिङन्तः वद् योग आ योगः ति वदति इति परस्मैपद बहु एकवचनरूपं तिङन्तम् इति उच्यते.
हा समीचीनमस्ति भगिनि. तर्हि पुनः अत्र नामकरणम् इति उक्तमस्ति. पदम् इति कदा वदामः? कस्य नाम पदम् इत्युक्ते यत्किमपि हा यत्किमपि सुबन्तं वा तिङन्तं वा भवति चेत् तद् पदम् इति नामकरणम्. अस्मिन् सूत्रे विभक्तयः काः इति वदति वा?
अस्मिन् सूत्रे इत्युक्ते
न सुप्तिङन्तं पदम् इत्यस्मिन्
सूत्रेङ्गन्तं पदं सुबन्तं सुप् सुप्रथमान्तं तिङन्तम् अपि सर्वे प्रथमान्तं भगिनि. सुप् तिङ् त्रीणि पदानि प्रथमाविभक्तिः एव.
हा 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 प्रथमाविभक्तिः एव. यथा वयं वदामः नामकरणं कुर्मश्चेत् कमपि बालकं दृष्ट्वा एषः रामः इति वदामः खलु, तत्र एषः अपि प्रथमान्तं, रामः अपि प्रथमान्तं, तद्वदस्ति पदं. पदम् इत्युक्ते किं? सुप्तिङन्तम् इति नामकरणं. तर्हि सूत्रेषु यत्र यत्र प्रथमाविभक्तिः दृश्यते तत्र तत्र आदेशः वा आगमः वा अथवा नामकरणम् इति सूचना लभ्यते प्रथमाविभक्तिद्वारा. अस्तु इदानीं
अत्र भगिनि अत्र भगिनि अत्र सु अस्ति तत्र तु आद्यन्तकार्यं करोति
न भगिनि आगमः नास्ति खलु सु इति प्रत्ययः
सु सु अह कथं तत्तु कोऽपि कोऽपि सूत्रमस्ति
सत्यं भिन्ना वार्ता अस्ति सु प्रायः व्याकरणवर्गेषु भवन्तः पठितवन्तः इति अपि भाति किन्तु अत्र मुख्यवार्ता का इति चेत् प्रथमा विभक्तिः अस्ति चेत् सूत्रेषु प्रथमा विभक्तिद्वारा सूचना लभ्यते यत् आदेशः वा आगमः वा अथवा नामकरणं भवति इति षष्टिविभक्तिद्वारा कस्य स्थाने कार्यं भवति इति सूचना प्रथमा विभक्तिः चेत् आदेशः आगमः अथवा नामकरणं कार्यं किम् अथवा विधिः का इति सूचना लभ्यते
भगिनि भगिनि व्युत्पत्तिः इत्युक्ते अर्थं किं
निष्पादनं अन्य कोऽपि प्रश्नः वा
आं भगिनि पूर्वस्मिन् सूत्रे लुङ् लङ् लङ् श्व लुदात्तः तत्र लुङ् लङ् लृङ् तत्र कथं सप्तम्यन्तं लुङ्गि इति भवति खलु सप्तम्यन्तं
हा हा अत्र प्रायः टङ्कणदोषः अस्ति तत्र सूत्रं विस्तृतरीत्या लिखितं खलु अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ्षु टङ्कणदोषः अपि न तथा दृश्यते लृङ्षु यत् यथा जगत् जगत् इति सप्तमी बहुवचने जगत् तथा
भगिनि तथा तत्र एव मम अपि एकः प्रश्नः अस्ति लुङ् लङ् लृङ्षु सप्तम्यन्तम् अट् प्रथमान्तम् अट् इत्युक्ते अकारः उदात्तः प्रथमान्तम् इति अस्ति उदात्तः प्रथमान्तम् इत्युक्ते किम्
उदात्तः अट् इत्यस्य एव विशेषणत्वेन अस्ति तत्र उदात्तः इति स्वराणाम् अस्ति खलु उदात्त अनुदात्त इत्यादिकं तथा किन्तु अत्र प्रमुखकार्यमस्ति अट् इति आगमः अस्तु अट् इति आगमः इति कृत्वा प्रथमविभक्त्याम् अस्ति इति
एकः मुद्रणदोषम् अस्ति भगिनि लुङ् लङ् लृङ्क्षु तत्र लृङ्क्ष इति मुद्रणमस्ति
न प्रायः उकारः नकारस्य अधोभागे अस्ति समीचीनतया न दृश्यते तावदेव इति
उकारस्य अधोभागे अस्ति किल ङ इति अस्ति
लृङ् हा लृङ् तस्य अधोभागे न इति अस्ति खलु सवर्गीयः तस्य अधोभागे अस्ति
द्विवारं तथा अस्ति खलु
कुत्र भगिनि
अन्तिमवाक्यस्य अन्ते अपि तथैव अस्ति द्विवारम् अस्ति
अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ्षु इति अस्ति खलु
शु इति नास्ति तत्र
तदेव वदामि प्रायः उकारः स्थापितः अस्ति महोदयेन तत्र किन्तु लृङ् इत्यस्य नकारः अस्ति खलु सवर्गीयस्य नकारः तस्य अधोभागे आगच्छति इति भाति
सत्यं परन्तु अहं वदामि द्विवारं तथा एव लिखितम् अस्ति पूर्वस्मिन् वाक्ये अपि तथा एव अस्ति
अस्तु प्रायः तथा स्यात् इति चिन्तयामि फाण्ट् एव तथा अस्ति इति अस्तु अन्य कोऽपि प्रश्नः
क्षम्यतां भगिनि अखिला अस्मि प्रश्नः न एवमेव तत्र इदा नाम उच्चारणमेव
अस्तु अनन्तरम् अन्य कोऽपि अस्ति इति भाति कोऽपि अस्ति वा अखिला भगिनी अनन्तरम् अस्तु सहदेव महोदय भवतः प्रश्नः अस्ति
भगिनि पूर्वस्मिन् सूत्रे अमुकवर्णस्य अर्थः कः अमुकवर्णस्य
अमुकवर्णस्य इत्युक्ते तत्र अमुक इत्युक्ते सो अण्ड् सो सच् अण्ड् सच् इति वदामः भाषायां
अस्तु
अमुक हा तादृश अर्थः अस्ति अमुक इत्यस्य. अस्तु अग्रे सरेम तर्हि. षष्टिविभक्ति प्रथमविभक्ति समाप्तम्. अधुना सप्तमी विभक्ति इति विद्या भगिनी पठति वा?
हा आं भगिनि. सप्तमी विभक्तिः पूर्वकार्यं. सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टात्
भगिनी न श्रूयते.
इदानीं श्रूयते वा?
इदानीं श्रूयते भगिनि.
हा पुनः वदामि. सप्तमी विभक्तिः पूर्वकार्यं. सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः. नाम निर्दिष्टं कार्यं तस्मात् पूर्वम् अस्ति. अत्र सप्तमी विभक्तिः इत्युक्ते पाणिनेः सूत्रे पूर्वकार्यम् इति अर्थः. तत्र पूर्वकार्यम् इत्युक्ते कस्यापि वर्णस्य पूर्वं कार्यं. यस्य सप्तमी विभक्तिः अस्ति तत् वर्णस्य पूर्वं कार्यं भवति इति अर्थः अत्र. इको यणचि, इकः स्थाने यन् आदेशः भवति अचि परे. इकः षष्ट्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तम्, इकः यण् अचि संहितायां. यथा वयं पूर्वं दृष्टवन्तः इकः षष्ट्यन्तम् इत्युक्ते इकः स्थाने आदेशः भवति यण् सप्रथमान्तं, प्रथमान्तम् आदेशः इकः स्थाने यण्. अचि सप्तम्यन्तम् इत्युक्ते अच् प्रत्याहारस्य पूर्वं कार्यं, सन्धिकार्यम् अथवा किमपि कार्यं भवति इति अस्ति. संहितायाम् इत्युक्ते यत्र सान्निध्यम् अस्ति अथवा सन्धिः अस्ति तत्र एतत् कार्यं भवति इति.
संहितायाः विषये.
संहितायाः विषये आम्. अनन्तरं
हा एकनिमिषः भगिनि, सर्वे अवगतवन्तः न वा इति पश्येम. सप्तमी विभक्ति इति पूर्वकार्यं यथा भगिन्या उक्तम् अस्मिन् सूत्रे इको याणाचि इत्यस्मिन् सूत्रे अच् इत्यस्य सप्तमी विभक्ति अस्ति अचि. यथा जगत् जगति तथा खलु भवान् इति शब्दस्य भवत् प्रातिपदिकं भवति इति भवति. तद्वत् अच् हलन्त, एते प्रत्याहाराः सर्वे हलन्तशब्दाः. हलन्तशब्दानां विभक्तिरूपाणि मनसि सन्ति चेत् महत् सौकर्यं भवति. अच् इत्यस्य सप्तमी विभक्तिरूपम् अचि. तर्हि यथा भगिनी सूचितवती सप्तमी विभक्ति इत्युक्ते पूर्वकार्यम्. अचि इति सप्तम्यन्तम् अस्ति. तर्हि अच् वर्णात् पूर्वं यः वर्णः भवति तत्र कार्यं भवति इति सूचना प्राप्यते. तर्हि भगिनि एवं करोतु, करपत्रस्य उपरितनभागे पश्यति वा, प्रथमे एव प्रथमपङ्क्त्यामेव यथा यदि योगः अपि तत्र सूत्रं कथं कार्यं करोति इति सूचयतु किञ्चित्.
हा यदि योगः अपि इति अस्ति अत्र इको यणचि इति कार्यस्य विषये पश्यामः. यदि इति तत्र अन्ते इकारः अस्ति, अपि इति पदे अकार आरम्भे अकारः अस्ति. इकारस्य स्थाने इको यणचि इति सूत्रेण
पुनः भगिनि पुनः प्रतिध्वनिः इव श्रूयते.
क्षम्यताम्, अहं भारते अस्मि इदानीम्.
इदानीं समीचीनम्. अस्तु वदतु भगिनि.
हा यदि योगः अपि इति अस्ति, तत्र यदि इति पदे अन्तिमवर्णः इकारः, अपि इति पदे अकारः अस्ति आरम्भे. इको एनचि इति सूत्रम् अत्र कार्यं करोति. यदि इकारस्य स्थाने यकारः आदेशः भवति अचि परे, अत्र अच्वर्णः अकारः अस्ति, अतः इकारस्य स्थाने यकारः आदेशः भवति यद्यपि इति भवति.
समीचीनम् इति वार्ता. अचि अचि इत्युक्ते अच् प्रत्याहारः. अस्तु, अच् प्रत्याहारवर्णानां प्रतिनिधिः अस्ति. अचि इति वदामश्चेत् अच् प्रत्याहारस्य कोऽपि वर्णः अस्ति चेत् तस्मात् पूर्वं कार्यं भवति इति सूचना लभ्यते सूत्रेण. तर्हि तस्मात् पूर्वम् अकारात् पूर्वं कः वर्णः अस्ति भगिनि?
इकारः अस्ति.
इकारः अस्ति. इकारः इक् प्रत्याहारस्य सदस्यः. तर्हि इकः स्थाने यण् आदेशः भवति. कस्यां दशायाम्? अचीपरे. इति कृत्वा अकारात् पूर्वं कार्यं भवति, इकारे कार्यं भवति, इकारस्य यकारत्वेन परिवर्तनम्. सर्वे अवगतवन्तः वा? अत्र कोऽपि प्रश्नः? अत्र मन्दं मन्दं गच्छामः, यतोहि अग्रे गत्वा सूत्रसहितपाठः भवति, हल्सन्धीनाम् अपि च अच्सन्धीनाम्. इति कोऽपि प्रश्नः अस्ति चेत् अधुना. एतत् फौण्डेशन् इव, सूत्रं कथं पठनीयम् इति फौण्डेशन् इव सूत्रसहितपाठस्य. कोऽपि प्रश्नः अस्ति चेत् कृपया.
अत्र यद् यदि योगः एवम् अस्ति चेत् अत्र यद् एवम् अस्ति.
सत्यं सत्यं, यद् एवं सत्यं भगिनि.
अत्र अचि तु आत् सर्वे सर्वे
अच् इत्युक्ते सर्वे स्वराः.
स्वराः
माहेश्वरसूत्रेषु पञ्चमपृष्ठे पश्यन्ति चेत् अच् इत्यस्मिन् सर्वे स्वराः अन्तर्भूताः सन्ति. अस्तु, इति सप्तमी कार्यं. सप्तमी विभक्तिः इत्युक्ते पूर्वकार्यम् इति मनसि भवेत्. यस्य कस्यापि पदस्य सप्तमी विभक्ति भवति सूत्रे, तर्हि तस्मात् पूर्वं कार्यं भवति सर्वदा. यथा अधुना वयं दृष्टवन्तः, इकारस्य स्थाने कार्यमासीत् यतोहि इकारः अकारात् पूर्वः आसीत् इति कृत्वा. अग्रे भगिनी विद्या भगिनी एव.
पञ्चमी विभक्तिः परकार्यं. सूत्रे यस्य वर्णस्य पञ्चमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः. नाम निर्दिष्टं कार्यं तस्मात् परम् अस्ति इति. अत्र पाणिनीयसूत्रेषु पञ्चमी विभक्तिः इत्युक्ते परकार्यम् इत्युक्ते कस्यपि वर्णस्य अनन्तरं कार्यं भवति, तस्मात् परं किमपि वर्णस्य तस्मात् परं कार्यं भवति इति अर्थः पञ्चमी विभक्तिः इत्युक्ते.
हा, समीचीनं भगिनि. तर्हि रसाभ्यां नूणः समानपदे इति यद् सूत्रमस्ति तत्तु सन्धिविषयक अस्माकं सन्धिविषयक नास्ति, तर्हि चिन्ता मास्तु. केवलम् एवमेव अवगच्छन्तु यत् पञ्चमी विभक्ति इत्युक्ते परकार्यं, तावदेव. यस्य कस्यापि, अत्र रसाभ्यां नोणः समानपदे इत्यस्मिन् सूत्रे पञ्चमी विभक्ति कस्य पदस्य भगिनि?
रसाभ्यां पञ्चमी अन्तमस्ति, पञ्चमी विभक्ति अस्ति रसाभ्यां.
हा, रसाभ्याम् इति पञ्चमी विभक्ति अन्तम् इत्युक्ते तस्मात् परम् अथवा तस्मात् अनन्तरं कार्यं भवति इति. एतत्तु नत्वविधायकसूत्रमस्ति. नकारस्य स्थाने णकारः वयं जानीमः खलु, अत्र उदाहरणानि सन्ति, रामेण पुष्पाणि, न तु रामेण. नकारस्य स्थाने णकारः आगत्य रामेण इति अभवत्. अत्र तदेव उक्तमस्ति, रसाभ्याम् इत्युक्ते रकारात् परः अथवा षकारात् परः नकारः अस्ति चेत् तस्य नकारः आगच्छति इति, नकारादेशः भवति. अस्मिन् सूत्रे अपि पश्यन्तु, रसाभ्यां पञ्चम्यन्तं नोणः इति उक्तं. वस्तुतः नः इति षष्ट्यन्तम् अस्ति, नः इति प्रथमान्तम् अस्ति, अतः नः इति आदेशः, नकारादेशः. नत्वविधायकसूत्रम् अस्ति एतत्. अस्तु भगिनि, अग्रिममपि पठतु भवती एव.
भगिनि, नो तु विसर्गसन्धिः अस्ति न?
समीचीनं भगिनि, नो विसर्ग अस्ति, नः इत्यस्य विसर्गः जातः. अस्तु, अग्रे
पठामि वा?
पठतु भगिनि.
हा, तृतीयविभक्तिः संयोजनं. सूत्रे यस्य वर्णस्य तृतीया विभक्तिः भवति सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः. तत्र निर्दिष्टं कार्यं तस्मात् पूर्वम् अपि परम् अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. अत्र तृतीयाविभक्तिः इत्युक्ते संयोजनं. इत्युक्ते द्वयोः वर्णस्य सम्बन्धः यदि अत्र उदाहरणरूपेण अस्ति स्तोः शुनाश्चुः इति तत्र यदि सकारः अथवा तवर्गस्य कश्चन वर्णः अस्ति तेषां सम्बन्धः यदि शकारः अथवा चवर्गस्य कश्चन वर्णस्य सह भवति चेत् तदा तत्र सन्धिकार्यं भवति इति अस्ति स्तोश्चुनाश्चुः सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति शकारस्य चवर्गस्य च योजनेन स्तोः षष्ट्यन्तं श्चुना तृतीयन्तं श्चुः प्रथमान्तं स्तोः श्चुनाश्चुः संहितायाम् अत्र स्तोः इति षष्ट्यन्तम् अस्ति इत्युक्ते सकारः अथवा तवर्गस्य कश्चन वर्णस्य स्थाने इति श्चुना इत्युक्ते तृतीयविभक्तिः तृतीयान्तम् अस्ति इत्युक्ते संयोजनं श्चुः इत्युक्ते प्रथमान्तं शकार अथवा चवर्गस्य कश्चन वर्णस्य आदेशः इति अस्ति एतदेव तृतीयविभक्तेः उदाहरणम् अस्ति
हा हा समीचीनं भगिनि अस्तु तर्हि सूत्रे तृतीया विभक्तिः दृश्यते चेत् संयोजनमिति अर्थः अत्र स्तोः इति उक्तमस्ति स्तोः वस्तुतः कीदृशपदमस्ति कोऽपि वदति वा
सकारतवर्गस्य षष्टिविभक्ति वा
हा तर्हि मूले प्रातिपदिकमिति रूपेण चिन्तयामश्चेत्
स्तु
हा समीचीनं स्तु इति अस्ति सकारः अपि च तु इत्युक्ते तु इति संक्षेपः तवर्गस्य संक्षेपः तु इति पाणिनिना क्रियते तु इत्युक्ते तवर्गः तस्मिन् त त द ध त थ द ध न सर्वे वर्णाः अन्तर्भूताः तर्हि यथा गुरुः इति शब्दः अस्ति गुरुप्रातिपदिकं खलु तस्य षष्ट्यन्तमस्ति गुरोः तद्वदेव स्तोः पुनः श्चुः इति अपि संक्षेपः शकारस्य अपि च चवर्गस्य चवर्गस्य संक्षेपः चुः इति क्रियते चु इत्यस्मिन् च छ ज ज्ञ सर्वे चवर्गीयाः वर्णाः अन्तर्भूताः पुनः श्चुना इति तृतीयान्तमस्ति यथा गुरु गुरुणा तद्वत् चुना इति अस्ति पुनः श्चुः इति प्रथमान्तमेव तर्हि तोः इत्युक्ते सकारस्य वा तवर्गस्य श्चुना नाम शकारस्य चवर्गस्य तृतीया विभक्त्यामस्ति श्चुना इत्युक्ते संयोजनं सकारतवर्गाणां शकारचवर्गे चवर्गैः सह संयोजनं भवति चेत् तदा श्चुः आगच्छति इति सूत्रम् अग्रे गत्वा इतोपि गभीरतया परिशीलयामः किन्तु तृतीया विभक्ति श्चुना इत्युक्ति इति तृतीया विभक्त्यन्तं श्चुना इत्युक्ते संयोजनम् अथवा योजनं सम्पर्कः इति चिन्तयन्तु तावदेव कोऽपि प्रश्नः वा एतावता
आं भगिनि तत्र पूर्वस्मिन् सूत्रे नः षष्ट्यन्तं नः प्रथमान्तम् इति लिखितमस्ति नः षष्ट्यन्तं तत्र प्रथमान्तं किं न वा
इदानीं जगत् इति तस्य षष्टिविभक्तिः कः
जगतः
जगतः तद्वत् न इति अस्ति नकारः तर्हि भवत्याः प्रश्नः स्यात् कथं वा नः इति रामः इव अस्ति अत्र नः इति खलु भवत्याः प्रश्नः
आम्
हा तत्तु सूत्रस्य व्याख्यां दृष्ट्वा एव अवगन्तुं शक्नुमः कथञ्चित् हलन्तम् अस्ति कथं केषुचित् स्थलेषु उच्चारणार्थं नः इति अकारान्तं क्रियते
अस्तु धन्यवादः
अस्तु भगिनी तर्हि भवती एव अग्रिमभागं पठतु एकनिमिषः अस्तु अग्रिमभागमस्ति व्याख्यानस्य आकृतिः इति नाम अत्र अस्मिन् जालपुटे यानि यानि सूत्राणि सन्ति तेषां व्याख्या कथं भवति इति एव उक्तमस्ति तावदेव यदा कदापि महोदयः सूत्रं दत्त्वा तस्य व्याख्यां लिखति चेत् एते अंशाः भवन्ति तस्मिन् सूत्रस्य अर्थः समासानां विग्रहः सूत्रे पदानां विभक्तिः सूत्रे अनुवृत्तिः अधिकारः अपि च अन्ततो गत्वा अनुवृत्तिसहितसूत्रम् इत्युक्ते सर्वं मिलित्वा एकं वाक्यं लिख्यते महोदयेन पूर्णतया सूत्रे अनुवृत्तयः का का इति सर्वं काः कः इति प्रदर्शयित्वा तावदेव अस्ति. अस्तु, ततः अग्रे तृतीयबिन्दुः अस्ति उदाहरणम् इति. तर्हि सावित्री भगिनी पठित्वा किञ्चित् विवरणं ददातु.
उदाहरणं यण् सन्धिः, यदि योगः अपि, अत्र यदि अस्य अन्तिमवर्णः इ अस्ति, अपि इत्यस्य प्रथमवर्णः अ अस्ति, द्वयोः इदानीमेव दृष्टवन्तः इको यणचि. अग्रे पठामि वा?
अग्रे पठित्वा एकवारं प्रायः.
अस्तु अस्तु. इको यणचि, इकः स्थाने यण् आदेशः भवति अचि परे संहितायां विषये. इकः षष्ट्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तं. त्रिपदम् इदं सूत्रं. संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम्. अत्र यथा पूर्वं दृष्टवन्तः, इको यणचि इति सूत्रं कार्यं करोति यदि योगः अपि अस्मिन् स्थाने. इको यणचि इति अत्र इकः इति षष्ठी विभक्तिरूपम् अस्ति, तदर्थं स्थाने भवति यथा पूर्वं दृष्टवन्तः. यण् इति प्रथमान्तम् अस्ति. अचि परे, यदि यदि स्वराणाम् एकः स्वरः अपि अग्रे अस्ति, इकारस्य अग्रे यदि स्वरः भवति, तदा अयं सूत्रं कार्यं करोति इति अत्र आहत्य अर्थः. अचि इति सप्तम्यन्तम् अस्ति, अच् इति प्रत्याहारः, तस्मिन् सर्वे स्वराः अन्तर्भवन्ति. संहितायाम् इत्युक्ते सान्निध्यम् अस्ति चेत् सन्धिविषये एतत् सूत्रं कार्यं करोति. अनुवृत्तिसहितसूत्रं भवति इकः यण् अचि संहितायां, यतोहि अत्र सूत्रमस्ति इको यणचि. केनापि पूर्वस्मिन् सूत्रेण संहितायाम् इत्यस्य अनुवृत्तिः भवति अत्र.
हा, समीचीनम्, इत्येव वार्ता. अपि च अचि इति सप्तम्यन्तम्, अचि सप्तम्यन्तम् इत्युक्ते कुत्र कार्यं भवति?
अचि इति सप्तम्यन्तं तस्मात् पूर्वं कार्यं भवति.
हा, सम्यक्. सप्तम्यन्तं यत्र भवति तेन निर्देशः प्राप्यते यत् पूर्वकार्यम् एव. अस्तु, अग्रे पठतु भगिनि.
अपरितने उपरितने व्याख्याने क्रमेण सूत्रार्थः अस्ति. समासस्य अभावात् समासविवरणं नास्ति. पदानां विभक्तयः दत्ताः, सूत्रे अनुवृत्तिः नास्ति. अधिकारः अस्ति, अनुवृत्तिसहितसूत्रम् अन्ते वर्तते. अत्र अनुवृत्तिः नास्ति परन्तु अधिकारः अस्ति, अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः. अस्तु, यथा मया उक्तं संहितायाम् इति अनुवृत्तिसहितवाक्यं, तत्र अनुवृत्तिः नास्ति इति लिखितमस्ति, परन्तु अधिकारस्य विषयः. एवं वा भगिनि? नमस्कारः.
भगिनी एव प्रायः गतवती इति चिन्तयामि.
अस्तु, उपरितने व्याख्याने यत्र विषयस्य अर्थः दत्तमस्ति, क्रमेण सूत्रार्थः अस्ति. समासस्य अभावात् समासविवरणं नास्ति. अस्तु, तत्र कोऽपि समासः नास्ति इको यणचि अस्मिन् सूत्रे. पदानां विभक्तयः दत्ताः, तत् पूर्वमेव दृष्टवन्तः, इकः इति षष्ट्यन्तम्, अचि इति सप्तम्यन्तम्, यण् इति प्रथमान्तम्. सूत्रे अनुवृत्तिः नास्ति. अत्र लिखितमस्ति पूर्वस्मिन् कोऽपि सूत्रम् अत्र कार्यं न करोति, अनुवृत्तिः नास्ति, परन्तु अधिकारः अस्ति. अनुवृत्तिसहितसूत्रम् अन्ते वर्तते. अत्र अनुवृत्तिः नास्ति परन्तु अधिकारः अस्ति, अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः.
अधिकारः अनुवृत्ति तयोः भेदः कः इति अग्रे पश्येम, अग्रिमबिन्दुः एव. अस्मिन् सूत्रे अनुवृत्तिः नास्ति इत्युक्ते सूत्रं स्वयं सम्पूर्णमस्ति. इकः यणचि कदाचित् पूर्वस्मात् पूर्वेभ्यः सूत्रेभ्यः केचन पदानि अथवा शब्दाः स्वीकृत्य अस्मिन् सूत्रे स्थाप्यते. तादृशम् अस्ति अनुवृत्तिः. अधिकारः इति भिन्नः, अग्रे गत्वा पश्येम. अस्तु भगिनि, समापयतु तर्हि.
अग्रे यदि योगः अपि इकारस्य परिवर्तनं जायते रूपेण यद्यपि भवति. अत्र इकारः इक् प्रत्याहारे अस्ति, यकारः यण् प्रत्याहारे अस्ति. सूत्रे इक् षष्टिविभक्तौ अस्ति, अतः तस्य स्थाने कार्यं भवति. यण् प्रथमाविभक्तौ अस्ति, अतः सः यकारः आदेशरूपेण इकारस्य स्थाने आयाति. अच् सप्तमीविभक्तौ अस्ति, अतः अपि शब्दस्य अकारात् पूर्वं कार्यं भवति. कार्यं किम्? ई स्थाने य आदेशः एव कार्यम्. अत्र विस्तरेण लिखितमस्ति कथम् इको यणचि इति कार्यं करोति अस्मिन् उदाहरणे. यदि योगः अपि अत्र अ इति वर्णः अचि अस्ति, अच् प्रत्याहारे अस्ति, अचि इति सप्तम्यन्तं, तदर्थं तस्मिन् पूर्वं कार्यं भवति. तस्मात् पूर्वं कार्यं भवति. इकारस्य परिवर्तनं जातं, यकारस्य आदेशः भवति, यद्यपि भवति.
हा, समीचीनं. तर्हि संक्षेपेण अस्य सूत्रस्य कार्यं किम् इति कोऽपि पृच्छति चेत् ई स्थाने य आदेशः, यण् सन्धि, तावदेव. अस्तु, वारं वारं यद्यपि इकारस्य यकारः इति वदामः, तथापि अग्रे गत्वा वयं पश्येम, उदाहरणानि सन्ति, उकारस्य स्थाने वकारः अपि आगच्छति. यथा उपरितनसूत्रे वयं दृष्टवन्तः खलु, लुङ् लङ् लुङ् श्वु लुङ् ष्वडुदात्तः, तत्र लृङ् षु इत्यस्मात् परम् अड् इति अट् इति आगच्छति. तर्हि तत्रापि इदमेव सूत्रं कार्यं करोति, पुनः यण् सन्धिः एव. अस्तु, इदानीं पाणिनीयसूत्राणि षड्विधानि इति अत्र अग्रिमभागः. पुष्पा भगिनी पठति वा?
अग्रिमभागः पाणिनीयसूत्राणि षड्विधानि. संज्ञा च, एकनिमिषं भगिनि, संज्ञा च परिभाषा च विधिर्नियम एव च. श्रूयते वा?
आमां भगिनि.
संज्ञा च परिभाषा च विधिर्नियम एव च. अतिदेशोऽधिकारश्च षड् विधं सूत्रलक्षणं. तत् एकः श्लोकः अस्ति न? तत् श्लोकमस्ति अत्र. संज्ञासूत्रं येन नामकरणं क्रियते, सुप्तिङ्गन्तं पदं तत्र उदाहरणं दीयते. द्वे, परिभाषासूत्रं यत्र नियमः नास्ति एतादृशं सूत्रम् आगत्य नियमति. स्थानेन्तरतमः विधिसूत्रं येन कार्यं विधीयते, तत्तु इकोयणचि सूत्रं उदाहरणं. नियमसूत्रं येन पूर्वात् विद्यमानः नियमः सीमितः भवति. रात् स वर्णस्य तत् तत् अहं न जानामि. परिचयं अतिदेशसूत्रं येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तते सार्वधातुकम् अपि इति सूत्रेण यः ङित् नास्ति सः ङिद्वत् स्यात्. अधिकारसूत्रं यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु संहितायाम् इदानीम् आवां दृष्टम् इकः यण् अचि संहितायाम् अनुवृत्तिसहितसूत्रम् आम् अत्र एकः श्लोकः अस्ति तत्तु सूचयति षड् विधानि तत्र संज्ञासूत्रं येन नामकरणं क्रियते तत्तु सुप्तिङ्गं तं पदम् उदाहरणार्थं परिभाषासूत्रं यत्र नियमः
एकनिमिष संज्ञासूत्रं नामकरणं क्रियते समीचीनम् इति दृष्टवन्तः. सन्धिप्रकरणे अपि एकं संज्ञासूत्रम् आगच्छति अग्रे पश्येम अदेङ्गुणः इत्युक्ते गुणसन्धिः भवति इति उक्तं तर्हि गुणः इत्युक्ते किं केनचित् नामकरणं करणीयं खलु
तदर्थं
इति तादृशसूत्राणि आगच्छन्ति अग्रे.
तानि परिभाषासूत्रं यत्र नियमः नास्ति एतादृशं सूत्रम् आगम्य नियमयति एतादृशसूत्रम् आगत्य नियमं करोति तत्तु परिभाषासूत्रम् अस्ति स्थानेन्तरतमः तत्तु परिभाषासूत्रम् अवं कथं ज्ञानीमः परिभाषासूत्र
वदामि स्थानेन्तरतमः इति परिभाषासूत्रम् इति उच्यते यतोहि एकाकी भूत्वा स्थानेन्तरतमः किमपि न कर्तुं शक्नोति. अस्तु पश्यतु इको यणचि इत्यस्मिन् सूत्रे तु एकं कार्यं विहितमस्ति खलु इकः स्थाने यण आदेशः स्थानेन्तरतमः सूत्रे कार्यरूपेण किमपि नास्ति किन्तु इदं सूत्रम् अपरस्य सूत्रस्य साहाय्यं करोति तादृशसूत्रमस्ति. इदानीम् इकः यणचि इति उक्तम् अस्य सूत्रस्य साहाय्येन इकः स्थाने इक् प्रत्याहारे इ उ रुल्र इति वर्णाः सन्ति खलु तर्हि वयं कथं जानीमः इकारस्य स्थाने यकारः एव आगच्छति उकारस्य स्थाने वकारः इति कथं जानीमः. तदर्थम् एकेन सूत्रेण सहायकत्वेन भवितव्यमेव. तादृशसूत्रमस्ति परिभाषासूत्रं नाम यत्र इको यणचि स्थले नियमः नास्ति तत्र एतत् सूत्रं गत्वा नियमं स्थापयति.
तत्तु इको यणचि अनुवृत्ति सहितसूत्रं स्थानेन्तरतमः तु उपयोगं करोति
अनुवृत्तिः अनुवृत्तिः नास्ति केवलं स्थानेन्तर अनुवृत्तिः नास्ति. परिभाषासूत्रम् अनुवृत्तिरूपेण न गच्छति अपरेषु सूत्रेषु परन्तु एतस्य सूत्रस्य साहाय्येन यत्र तादृशं कार्यं भवति यत्र एकस्य वर्णस्य स्थाने अपरः आगच्छति तर्हि प्रश्नः उदेति खलु कः वर्णः आगच्छेत् इति तदा एतादृशपरिभाषासूत्राणि साहाय्यं ददति.
तत्तु अत्र अनुवृत्तिः नास्ति अनुवृत्तिः नास्ति. विधिसूत्रं येन कार्यं विधीयते तत्तु इकोण चेत् इदानीं उदाहरणं दत्तं तत्तु विधिसूत्रं नियमसूत्रं तु येन पूर्वात् विद्यमानः नियमः सीमितो भवेत् तत्तु अहं न जानामि.
चिन्ता नास्ति एकम् उदाहरणं ददामि. नियमसूत्रम् इत्युक्ते एकं सूत्रं भवति अस्तु तेन सूत्रेण एकं कार्यं भवति बृहत् कार्यक्षेत्रं भवति इति चिन्तयतु. अस्तु नाम रात्सस्य इत्यस्मात् पूर्वं संयोगान्तस्य लोपः इति एकं सूत्रं भवति त तत्र पदस्य अन्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः भवतु इति तत् सूत्रं भवति इति कार्यक्षेत्रं तस्य सूत्रस्य. परन्तु रात्सस्य सूत्रम् आगत्य वदति रकारोत्तर सकारस्यैव लोपः भवतु इति, तथा नियमनं करोति, कार्यक्षेत्रं सीमितं करोति. तादृशसूत्रमस्ति नियमसूत्रं. सन्धिविषये वयं न पठितवन्तः, तर्हि चिन्ता मास्तु. संज्ञा परिभाषा विधिसूत्रम् इति प्रमुखत्रिविधं स्यात्. अनन्तरम्
अतिदेशसूत्रं येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तेत, तत्तु अत्र सार्वधातुकम् अपित् सूत्रेण इत् नास्ति चेत् सः निद्वत् निद्वत् भवति.
हा हा, समीचीनम्. इदं सूत्रमपि प्रायः सन्धिविषये न पश्यामः, अतिदेशसूत्राणि
व्याकरणविषये सार्वधातुकम् अपि सार्वधातुकधातूनां अधिकारसूत्रं यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु. संहितायाम् अधिकारसूत्रम् अस्ति.
हा, इत्युक्ते तत्र सूक्ष्मभेदः अस्ति. अस्तु, अनुवृत्तिः इत्युक्ते कस्यचित् सूत्रस्य भागः अपरेषु सूत्रेषु आगच्छति इति. परन्तु अधिकारसूत्रं पूर्णतया अपरेषु सूत्रेषु गच्छति, यतोहि संहितायाम् इति एकं सूत्रमस्ति, तस्य कश्चन भागः इति न. तत् सूत्रं पूर्णतया अपरेषु सूत्रेषु, नाम बहुषु सूत्रेषु गच्छति. हा, सावित्री भगिनी पठितवती इको यणचि इत्यस्मिन् अनुवृत्ति नास्ति अधिकारः अस्ति इति, खलु भगिनी?
संहितायाम्
एतदेव उदाहरणमस्ति, संहितायाम् इत्यस्य अधिकारः इति वदामः.
भगिनि, अत्र नियमसूत्रं येन पूर्वात् विद्यमानः नियमः सीमितः भवेत्. पूर्वात् विद्यमानः नियमः इत्युक्ते पूर्वं विधिसूत्रेण नियमः भवति अथवा परिभाषासूत्रेण नियमः भवति वा?
विधिसूत्रेण. समीचीनः, प्रश्नः आगच्छेत् सत्यं. पूर्वस्मात् सूत्रात् यः नियमः भवति तस्य नियमस्य सीमनं भवति इति. अस्तु, एकं सूत्रं वदति चेत् यत्र कुत्रापि संयोगः इत्युक्ते हलोनन्तरः संयोगः अस्ति खलु, यत्र कुत्रापि संयोगः भवति तत्र संयोगस्य अन्तिमवर्णः अपगच्छतु इति एकं सूत्रं वदति इति चिन्तयतु. अस्तु, इदानीं रात्सस्य आगत्य वदति न, संयोगे रकारः अस्ति चेदेव अथवा रेपः अस्ति चेदेव तत् कार्यं भवतु, तदुत्तरसकारस्य लोपः भवतु इति किमपि वदति राष्ट्रस्य. तत्र नियमनं कृतं कार्यं,
विधिसूत्रस्य नियमः करोति.
किं?
विधिसूत्रस्य नियमः सीमितं करोति.
हा, पूर्वविहितकार्यं किञ्चित् सीमितं भवति विधिसूत्रस्य एव. समीचीनं.
किमर्थं तद् परिभाषासूत्रेण वक्तुं न शक्नोति
इत्युक्ते किमर्थं?
हा, तदपि तु सहायकसूत्रमेव अस्ति, तदा किमर्थं नियमसूत्रमिति पुनः एकविधसूत्रं पाणिनेः कृतम्?
नियमसूत्रं तु कार्यस्य स्पेसिफिक् अस्ति खलु भगिनि, तत्र एकं कार्यमस्ति, तस्मिन् कार्ये नियमनं करोति, किन्तु स्थानेन्तरतमः इति सर्वत्र तस्य प्रसक्तिः, अप्लिकबल् एव्रिवेर्, यत्र कुत्रापि स्थाने आगच्छति तत्र इति भेदः उभयोः. अस्तु, अग्रे गच्छेम वा
भगिनि?
वदतु.
अधिकारः अनुवृत्तिः शब्दानां शब्दाः आङ्ग्लभाषायां कथं वदामः? अधिकारः अनुवृत्तिः,
अनुवृत्तिः तु वक्तुं शक्नुमः, अनुवर्तनम् इति खलु. अनुवर्तनम् इत्युक्ते अनुसरणम्, एकस्मात् सूत्रात् अपरेषु सूत्रेषु एकस्य पदस्य तस्य सूत्रस्य कश्चन भागस्य अनुवर्तनं, फालोयिङ्ग् भवति इति अनुवृत्तिः. अधिकारः तु आङ्ग्लभाषायां साक्षात् अनुवादं कुर्मः चेत् तत्र अर्थः समीचीनं न भवति. व्याकरणक्षेत्रे अधिकारः इत्युक्ते तादृशसूत्रं यद् यद् बहुषु सूत्रेषु आगच्छति इत्येव चिन्तनीयम्. तर्हि तत्र व्यवहारः कथं भवति इत्युक्ते संहितायाम् इत्यस्य अधिकारे अस्ति इत्युक्ते पश्यतु संहितायाम् इत्यस्य सूत्रसङ्ख्या का? षष्टाध्यायस्य प्रथमपादस्य एकसप्ततितमसूत्रं खलु. तर्हि तत्र पाणिनीय सूत्रेषु तत्र सूचना अपि दत्ता अस्ति. संहितायाम् इत्यस्य अधिकारः 6171 इत्यस्मात् आरभ्य कुत्रचित् प्रायः 7-1 सम्थिङ्ग् इति चिन्तयतु तावत्पर्यन्तं भवति इति सूचना दत्ता अस्ति. इत्युक्ते तस्मिन् तासु सङ्ख्यासु यानि कानि अपि सूत्राणि भवन्ति तानि सर्वाणि संहितायाम् इत्यस्य अधिकारे सन्ति इति. आङ्ग्लभाषायां कथं करोमि इति न जाने. किं भगिनि?
प्रामुख्यतेन प्रामुख्यं दीयते अधिकारसूत्र सूत्रस्य.
अधिकारम् इत्युक्ते एतदेव अर्थः, एषः एव अर्थः पाणिनीय पाठे. बहुषु सूत्रेषु पूर्णतया अनिवृत्तिः इति. भगिनि वदतु.
हा, गवर्निङ्ग् इति वक्तुं शक्नुमः खलु तर्हि तत्र?
हा, प्रायः स्थूलरीत्या वक्तुं शक्नुमः गवर्निङ्ग् इत्युक्ते हा, अथवा तस्य एतस्य प्रभावः, अस्य सूत्रस्य प्रभावः बहुषु सूत्रेषु वर्तते इति कृत्वा गवर्निङ्ग् इति वक्तुं शक्यते.
तस्य प्रसक्तिरस्ति इति वक्तुं शक्नुमः वा?
प्रसक्तिः इत्युक्ते अप्लिकबिलिटि भगिनि खलु. इदानीम् इको यणचि इत्यस्य सूत्रस्य प्रसक्तिः यदि योगः अपि इत्यस्य स्थाने अस्ति इति वक्तुं शक्नुमः. संहितायाम् इति अधिकारसूत्रं, तस्य सूत्रस्य प्रभावः बहुषु सूत्रेषु भवति इति अवगन्तुं शक्नुमः.
धन्यवादः.
अस्तु, अग्रे गच्छामः वा? ओवर्लोड् जातं चेत् वदन्तु. अत्र भिन्नरीत्या किमपि कुर्मः. एवमेव एतद् करपत्रं चितवती यतोहि अस्मिन् अग्रे गमनार्थं यत्किमपि अपेक्षितं तत् सर्वम् अस्ति इति कृत्वा. अस्तु
भगिनि, अस्य परिच्छेदस्य अर्थः सूत्राणि षड्विधानि सन्ति इति अर्थः? सूत्राणि पाणिनेः सूत्राणि षड्विधानि सन्ति, तस्मिन् संज्ञासूत्रं परिभाषासूत्रं
सत्यम् इति वयं दृष्टवन्तः. अर्थः कः इति पृच्छति वा? षड्विधानि इत्युक्ते षड् प्रकारकाणि इति. षड्विधसूत्राणि वयं दृष्टवन्तः, संज्ञासूत्रं, परिभाषाविधि, नियमसूत्रम्, अतिदेश अधिकारसूत्रं खलु. अस्तु अस्तु, इतोपि एकः विषयः अस्ति निमित्तम् इति, तस्य किञ्चित् परिचयं प्राप्य सूत्रसहितपाठं द्रष्टुं शक्नुमः इति चिन्तयामि. अभिनवमहोदय अस्ति वा?
आं भगिनि, अस्ति.
तत्र द्वितीयकरपत्रम् अस्ति 2A निमित्तम् इति, पठति वा?
उद्घाटयामि.
प्राप्तम्?
एकनिमिषं भगिनि, निमित्तम् आम् निमित्तम् इति विषये कश्चन विचारः. अनेन पाणिनीयसूत्रसन्दर्भे विभक्तीनाम् अर्थः पुनः इतोपि स्पष्टः स्यात्. यदा वदामः यत् सूत्रे किञ्चन किञ्चन पदं, कश्चन वर्णः, कश्चन प्रत्याहारः सप्तमी विभक्तौ अस्ति, तदा पूर्वकार्यम् इति उच्यते. नाम यत् पदं सप्तमी विभक्तौ तत् परम् अथवा अनन्तरम् अस्ति अपि च तत् कालस्य निमित्तं कारणं निमित्तस्य अभावे कार्यं न भविष्यति।
एतावता किं बुद्धं महोदय?
यदा सप्तमी विभक्ति भवति तदा पूर्वकार्यम् इति मन्ये।
हा, प्रथमतया विचारः अस्ति अत्र निमित्तम् इति। निमित्तम् इत्युक्ते
निमित्तं कार्यं,
निमित्तम् इत्युक्ते कारणम् अथवा हेतु।
कारणं हेतु।
येन कारणेन अथवा यस्य कारणेन कार्यं प्रचलति तादृशमस्ति निमित्तम्। अस्तु, इदानीं निमित्तं कुत्र कुत्र कथं भवति इति पश्येम। सप्तमी विभक्ति इति एकं स्थलम् अस्ति, यथा वयं जानीमः सप्तमी विभक्तौ पूर्वकार्यम् इति सूचना लभ्यते। अस्तु, हा, अत्र द्वितीयवाक्यं पुनः पठतु। नाम,
नाम यत् पदं सप्तमी विभक्तौ तत् परम् अथवा अनन्तरम् अस्ति अपि च तत् कार्यस्य निमित्तं कारणं निमित्तस्य अभावे कार्यं न भविष्यति। यत् पदं सप्तमी विभक्ति अस्ति तत् परम् अस्ति, तत्र निमित्तम् अस्ति।
हा, एकं सप्तमी युक्तपदम् अस्ति, अस्तु, तद् परम् अस्ति चेत् कार्यं कुत्र भवति? वयं किं दृष्टवन्तः? सप्तमी इत्युक्ते पूर्वकार्यम् इति दृष्टवन्तः खलु? तर्हि सप्तमी युक्तपदं परम् अस्ति चेत् तस्मात् पूर्वं कार्यं भवति, अतः तत् पदं कार्यस्य निमित्तम् अथवा कारणं भवति। निमित्ताभावे कार्यं न भविष्यति, तर्हि एतत् सप्तमी विभक्तियुक्तपदं कार्यस्य निमित्तम् अथवा कारणं भवति इति उक्तम् अत्र। अस्तु, सूत्रस्य द्वारा पश्येम, अग्रे पठतु।
इको यणचि अचि सप्तमी विभक्तौ अच् वर्णः परं कार्यं पूर्वं, कश्चन अच् वर्णः परं नास्ति चेत् कार्यं न भविष्यति। अत्र अचि सप्तमी विभक्तौ अस्ति, अच् वर्णः परं कार्यं पूर्वं, अच् वर्णः परम् आगच्छति कार्यं पूर्वम्।
परम् इत्युक्ते अनन्तरम् इति खलु?
अनन्तरं कश्चन अचुवर्णः परं नास्ति, यदि अचुवर्णः परं नास्ति चेत् तत्र कार्यं न भविष्यति।
उदाहरणं
अत्र न भविष्यति अस्ति न, तत्र उदाहरणम् अस्ति कोऽपि?
अग्रे पश्यामः भगिनि, न भविष्यति इति वा?
हा, हा, कोऽपि न भविष्यति न?
हा, तदेव उक्तम् अस्ति अत्र, अच्वर्णः परः नास्ति चेत् कार्यं न भविष्यति, तर्हि अच्वर्णः आवश्यकः एव, तद् निमित्तम् इति उच्यते।
कथं न अस्ति, सर्वे अपि अस्ति न?
तदेव उक्तमस्ति भगिनि, यदि न स्यात् अच्वर्णः यदि न स्यात् तदा कार्यमेव न भविष्यति, नितराम् अपेक्षितमस्ति तादृश पूर्वकार्यार्थं सप्तमीयुक्त अच्वर्णः इति। अस्तु, अग्रे पश्येम, महोदय, अभिनव महोदय।
यदि योग अपि यद्यपि भवति, अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य स्थाने यकारः भविष्यति किं नैव। अतः स्थ अकारः कार्यस्य निमित्तम्। कार्यात् परम् अच् वर्णः नास्ति चेत् कार्यम् इ भवति या न भवति। अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य इकारे यकारः न भविष्यति। अत्र इकारः अस्ति अतः यकारः भविष्यति, कार्यं भवति।
हा, तत्र प्रथमतया इकारस्य यकारः इति वदामः, तर्हि वस्तुतः निमित्तद्वयमस्ति, इकारः इकारात् परः अकारः इति निमित्तमस्ति। परन्तु अत्र केवलं सप्तमीविभक्तेः परिशीलनं जायमानमस्ति खलु, तदर्थम् उक्तम् अत्र इकोयण् अचि, अचि सप्तम्यन्तमस्ति, नाम यत्किमपि परम् अस्ति तस्मात् पूर्वं कार्यं भवति इति सङ्केतः। तादृशी स्थितिः अस्ति वा अत्र यदि योगः अपि इत्यस्मिन्?
क्षम्यतां भगिनि, न गच्छामि अन्तिमवाक्यं।
तादृशी स्थितिः अस्ति वा यदि योगः अपि इत्यस्मिन् यत्र अच्वर्णः परमस्ति? यदि योगः अपि इति उदाहरणं स्वीकरोतु, तत्र अच्वर्णः परः अस्ति वा?
अस्ति।
अस्ति खलु, अकारः इति अच्वर्णः परम् अस्ति, तदर्थमेव इकारस्य स्थाने यकारः भवति। तथा न भवति चेत् कार्यं जायते किम्?
न जायते।
न जायते इति वार्ता, तदर्थम् अकारः कार्यस्य निमित्तम् इति वदामः। अस्तु,
यदि अत्र केवलं यदि इति पदम् अस्ति चेत् इ भवति इकारः भवति यकारः इति कार्यं भवति वा? न भवति किल, निमित्तस्य अभावे यदि यथावत् तिष्ठति। अत्र यदि शब्दे इकारः अस्ति, अतः यकारः भविष्यति। यदि इकारः न भव अस्ति चेत् यकारः अपि न भविष्यति, अतः निमित्तस्य अभावे यदि यथावत् तिष्ठति।
हा, यदि यथावत् तिष्ठति,
इकारः यकारः न भविष्यति।
हा, अस्तु इति वार्ता, तदर्थं निमित्तम् अपेक्षितं। निमित्तम् अस्ति तत्र परः यः अकारः अस्ति स अच्वर्णेषु अन्यतमः इति। अस्तु, इदानीं द्वितीयबिन्दुः, सहदेव महोदय अस्ति वा?
आं भगिनि, पञ्चमी विभक्तौ अस्ति तदा परकार्यम् इति उच्यते, नाम यत् पदं पञ्चमी विभक्तौ तत् पूर्वम् अस्ति अपि च तत् कार्यस्य निमित्तं कारणं, निमित्तस्य अभावे कार्यं न भविष्यति।
पञ्चमी विभक्ति इत्युक्ते महोदय सप्तमी पूर्वकार्यं, पञ्चमी इत्युक्ते
पञ्चमी विभक्ति रामात्
पर, एकनिमिषः, पञ्चमी विभक्ति इत्युक्ते किम्? प्रथमवाक्यं पठतु।
प्रथमविभक्ति रामः, प्रथमविभक्ति
महोदय। द्वितीयबिन्दु, पञ्चमी विभक्तौ अस्ति तदा परकार्यम् इति उच्यते खलु, पञ्चमी विभक्ति अस्ति चेत् परकार्यं, परकार्यम् इत्युक्ते कार्यम् अनन्तरं भवति इति अर्थः, अवगतम्?
किञ्चित् अवगच्छामि.
तर्हि एवं करोतु, प्रथमम् उदाहरणं पश्यतु, तदनन्तरं सूत्रं परिशीलयिष्यामः. रामः योगः इन् तत्र किम् अस्ति?
पुनः वदतु भगिनि.
उदाहरणं परिशीलयतु. राम योगः इन् इन इति अस्ति खलु?
रामयोगः इन्
इन इति अस्ति. तेन किं जातम्?
क्षम्यतां भगिनि, न जानामि
महोदय.
अग्रे अस्ति महोदय,
अग्रे अस्ति. रचाभ्यां नूनः समानपदे इति सूत्रं, ततः अधोभागे पश्यतु. राम प्लस् इन इति अस्ति खलु, पश्यति वा? रामेण इति अस्ति. पुनः एकं सूत्रम् आगत्य कार्यं करोति, रसाभ्यां नूनः समानपदे. तेन किं जातम्? रामेण किं जातम् इत्युक्ते कार्यं किम् अभवत्? प्रथमतया रामेण इति आसीत्, रसाभ्यां नूणः समानपदे कार्यं कृत्वा रामेण इति अभवत्. नकारः आगच्छति खलु, नकारस्य स्थाने नकारः, पश्यति वा? केनिसि डिफ्रेन्स्? नकारः आसीत् प्रथमं, तदनन्तरं नकारः. एतदस्ति पञ्चमी विभक्ति इत्यस्य उदाहरणम्. अस्तु, पञ्चमी इत्युक्ते परकार्यम्. अत्र रसाभ्यां नूणः समानपदे इति सूत्रे रसाभ्यां पञ्चमी विभक्ति अस्ति, तत्तु पूर्वम् अस्ति. पूर्वं भूत्वा परकार्यं जनयति, तदर्थं पञ्चमीयुक्तपदमपि कार्यस्य एकं निमित्तम् इति वदामः. यदि रेपः अथवा रकारः पूर्वं न आसीत् तर्हि कार्यम् एतत् कार्यमपि न भवति इति कृत्वा पञ्चमीयुक्तपदं रसाभ्याम् इति अपि कार्यस्य एकं निमित्तम्. अभिनवमहोदय पठितवान् सप्तमीविभक्तियुक्तं कार्यस्य निमित्तम् इति, अधुना पञ्चमीविभक्तियुक्तं कार्यस्य निमित्तम्. अवगच्छति वा?
अवगच्छामि.
अस्तु, अग्रिम बिन्दुं पठतु. अत्र रामस्य
रेपः पूर्वं नास्ति चेत् नकारस्य स्थाने नकारदेशः भविष्यति. किं नैव, अतः सः रेपः कार्यस्य निमित्तं. कार्यात् पूर्वं रेपः चकारः च नास्ति चेत् कार्यं न इति न भवति.
हा, इत्येव अधुना मया उक्तं, रेपः कार्यस्य निमित्तं भवति, नाम पञ्चमीयुक्तपदं रसाभ्याम् इति अपि कार्यस्य निमित्तं. रेपः अथवा शकारः अस्ति चेत् तदुत्तरवर्ति नकारस्य नकारः भवति इति सूत्रं वदति. इतोपि एकम् उदाहरणम् अग्रे अस्ति, अग्रे पठतु. एतद् उदाहरणमस्ति यत्र कार्यं न भवति. देवः योगः
इन इति देवेन. अत्र देवशब्दे रेपः नास्ति. अस्यां दशायां नकारस्य स्थाने नकारः भवति वा न भवति किल. निमित्तस्य अभावे देवेन यथावत् तिष्ठति.
अत्र रकारः देवयोग इन, तत्र रकारः इत्युक्ते रेपः अथवा शकारः दृश्यते वा? सदे महोदय, रेपः अस्ति वा? देवयोग इन इत्यस्मिन् रेपः अस्ति वा? रेपः इत्युक्ते रकारः, रेपः अस्ति वा तत्र देवशब्दे? नास्ति. रेपः नास्ति इति कृत्वा अन्तिमनकारः नकारत्वेन परिवर्तनं न प्राप्नोति यतोहि तत्र निमित्तं नास्ति निमित्तस्य अभावे देवेन इति शब्दः यथावत् तिष्ठति कार्यं न जायते अतः निमित्तम् आवश्यकम् अत्र निमित्तम् अस्मिन् उदाहरणे निमित्तम् अस्ति प्रकारः अथवा शकारः पञ्चमीयुक्तपदं यद् पूर्वम् अस्ति तद् इति अस्तु अग्रे सरेमतरि अन्तिमबिन्दुः अखिला भगिनी पठति वा
आं भगिनि तृतीया विभक्तौ अस्ति न अट्कु तदेव
भगिनि एकः प्रश्नमस्ति अत्र ए अस्ति न तत्तु इन कथम् आयाति
काचित् प्रक्रिया भवेत् भगिनि तद् अनन्तरं पश्येम तत्र तु किं गुणसन्धि एव देवयोगः इन
गुणसन्धि अस्ति तत्तु प्रत्यय तु अस्ति न तत् कथम् इन अस्ति
भगिनि एकनिमिषं तिङ् प्रत्ययविषये अपि वयं दृष्टवन्तः खलु तत्र प्रत्ययादेशाः भवन्ति इति तद्वत् सुप्रत्ययेषु अपि प्रत्ययादेशाः स्युः तावदेव द्वितीया विभक्त्याम् अस्तु अखिला भगिनि
आं भगिनि तत्र अट्कुप्वाङ्गुं तत्र
तद्वर्जयित्वा पठतु भगिनि
अस्तु तदेव प्रश्नः आसीत् तृतीया विभक्तौ अस्ति योगः इत्युक्ते सम्बन्धः इत्यनेन निमित्तं पूर्वम् अपि भवितुम् अर्हति परम् अपि भवितुम् अर्हति अतः सप्तमी पञ्चमी इत्यनयोः मेलनम् इति चिन्त्यतां नाम पूर्वकार्यम् अपि अर्हति परकार्यम् अपि अर्हति अपि च षष्टिविभक्ति तयोः विषये दृष्टवन्तः इदानीं तृतीया विभक्तौ अस्ति चेत् तस्य अर्थः कः इति प्रश्नः तृतीया विभक्तौ पदमस्ति चेत् योगः इत्येव अर्थः इत्युक्ते तत्र तृतीया विभक्त्याम् अस्ति इति कृत्वा तत्पूर्वं भवति वा परं भवति वा इति न सूचयति परन्तु तृतीयां विभक्त्याम् अस्ति चेत् तद् अस्ति चेत् तत्र कार्यं भवति इत्येव इत्युक्ते तत्र तदर्थमेव अत्र पञ्चमी अपि च सप्तमी इत्यस्य मेलनम् इति उक्तवन्तः इत्युक्ते यदा पञ्चमीविभक्त्याम् अस्ति तदा पूर्वं सप्तमीविभक्त्याम् अस्ति चेत् परम् इति यद् पूर्वं वयं दृष्टवन्तः तस्य मेलनमेव वस्तुतः अस्ति तृतीया विभक्त्याम् इति
अग्रे पठित्वा समाप्य
अत्र यत् पदं तृतीया विभक्तौ तत् कार्यस्य निमित्तम् इत्युक्तौ कार्यस्य कारणं तस्य अभावे कार्यं न भविष्यति अयं विषयः अपि वयं पूर्वम् अस्माभिः दृष्टः इत्युक्ते यत्र निमित्तस्य अभावे तत्र कार्यं न भवति इति तर्हि तत्र तृतीया विभक्त्यां यत् यद्निमित्तं सूचितं तद् नास्ति चेत् तत्र कार्यं न भवति उदाहरणं स्तोः शुना श्चुः सकारतवर्गयोगो षकार सवर्गाभ्यां योगे षकारचवर्गौ स्तः योगः सम्बन्धः इत्यनेन निमित्तं षकारः चवर्गः च पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति स्तोः षष्ट्यन्तं श्चुना तृतीयान्तं श्चुः प्रथमान्तं सूत्रमस्ति स्तोः श्चुना श्चुः इति सूत्रं पश्यामः चेत् तत्र श्चुना इति तृतीयान्तं पदमस्ति चुः इति प्रथमान्तं स्तोः इति षष्ट्यन्तं तर्हि षष्ट्यन्तम् इत्युक्ते स्थाने इति वयं जानीमः प्रथमान्तम् इत्युक्ते आदेशः इति अत्र तर्हि स्तोः इत्यस्य स्थाने श्चुः आगच्छति इति वयं जानीमः इदानीं प्रश्नः अस्ति कदा इति अत्र श्चुना इति अस्ति श्चुना इति तृतीया विभक्त्याम् अस्ति इति कृत्वा प्रथमतया स्तोः इत्युक्ते सकारः तवर्गीयः इत्युक्ते स्तु इति पदस्य षष्ट्यन्तं पदं तु इत्यनेन तवर्गीयव्यञ्ज व्यञ्जनानि सूचितानि तर्हि सकारतवर्गीयव्यञ्जनस्य स्थाने व्यञ्जनेश् व्यञ्जन व्यञ्जनानां स्थाने षकार चवर्गीयव्यञ्जनादेशः इति सूत्रं वदति. कदा इति प्रश्ने सति तत्र श्चुना इति तस्य समाधानम्. इत्युक्ते यत्र षकारचवर्गीयः आगच्छति, इत्युक्ते पूर्वं वा भवतु परं वा भवतु, परन्तु सकारस्य वर्गे स्थितानि व्यञ्जनानि तेषां योगः स्थुवर्गे स्थितानि व्यञ्जनानि तैः सह भवति चेत् तदा तत्र स्चुः इति आदेशः भवति. उदाहरणं किञ्चित् परिशीलयामः. तर्हि तत्र उदाहरणमस्ति अन्यत् योगः च. अत्र तकारः इति पूर्वमस्ति, चकारः चवर्गीयव्यञ्जनः तस्य अनन्तरमस्ति. तर्हि सूत्रं वदति तत्र तकारचवर्गीय योगः भवति चेत् तकारस्य स्थाने चकारादेशः इति. तद्वत् अन्ययोगः यः यकार उत्तरवर्ति तकारः अस्ति तस्य स्थाने चकारः, चकारस्य अनन्तरं मूले स्थितः चकारः, तर्हि अन्यच्च इति रूपं निष्पन्नं. अत्र निमित्तं चकारः परं कार्यं च स्थाने च पूर्वम्. इत्युक्ते अन्यच्च इति पश्यामः चेत् यः चकारः निमित्तमस्ति, इत्युक्ते तृतीयाविभक्त्यां सूत्रे अस्ति स्चुना इति, तत् परमस्ति. कार्यं यत्र कार्यं विधीयते तकारः इति, तत् पूर्वमस्ति. अन्यत् अत्र केवलम् अन्यत् इति पदमस्ति चेत् त च इति तकारस्य चकारः इति कार्यं भवति वा न भवति किल, निमित्तस्य अभावे अन्यत् यथावत् तिष्ठति. इत्युक्ते अत्र अन्यत् इति केवलं पदमस्ति चेत्, अन्यत् योगः च इति स्थितिः नास्ति चेत् अत्र किमपि कार्यं न जातं, यतोहि तत्र निमित्तं नास्ति. निमित्तं किं? निमित्तम् अस्ति चकारः इति. तर्हि तादृशनिमित्तं नास्ति चेत् अत्र कार्यमपि न भवति, इत्युक्ते निमित्तस्य अभावे कार्यस्य अपि कार्यं न भवति. द्वितीयम् उदाहरणं यज् योगः नः. अस्मिन् उदाहरणे तत्र जकारः चवर्गीयव्यञ्जनः अस्ति, स च व्यञ्जन वर्णः पूर्वमस्ति, नकारः इति तवर्गीयव्यञ्जन व्यञ्जनं तत् परमस्ति. तर्हि यज् योगः नः. अत्र यज् योगः न स्थाने ञै इति आदेशः, इत्युक्ते चवर्गीयव्यञ्जनेषु पञ्चमदसदस्यः ञकारः तस्य आदेशः. ञै योगः अह रूपं भवति यज्ञः इति. अत्र निमित्तं जकारः पूर्वं, कार्यं न स्थाने ञै परम्. तर्हि अस्मिन् उदाहरणे जकारः इति यः निमित्तमस्ति तत् पूर्वमस्ति, कार्यं तस्य अनन्तरमस्ति. तर्हि तत्र अनेन उदाहरणेन वयं वक्तुं शक्नुमः, अवगन्तुं शक्नुमः यत् तत्र निमित्तं पूर्वं वा भवतु परं वा भवतु, परन्तु कार्यं भवति एव इति. नः, अत्र केवलं नः इति पदम् अस्ति चेत् नकारः ञकारः इति कार्यं भवति वा? न भवति किल, निमित्तस्य अभावे नः एतावत् तिष्ठति. अत्र नः इति केवलमस्ति चेत्, इत्युक्ते यज् इति तस्य पूर्वं नास्ति चेत् अत्र किमपि कार्यं न भवति, यतोहि तत्र जकारः इति निमित्तम् आवश्यकम् एतस्य सूत्रस्य कार्यार्थं. तर्हि तादृशनिमित्तम् अत्र नास्ति इति कृत्वा किमपि कार्यमपि न भविष्यति.
हा, समीचीनं भगिनि. तर्हि स्चुना इति तृतीयविभक्त्याम् अस्ति खलु, तस्य उदाहरणत्वेन उदाहरणद्वयं दत्तं. पश्यन्तु तत्र चवर्गीयवर्णः पूर्वमपि अस्ति परमपि अस्ति उदाहरणद्वये, तेन समानमेव कार्यं सञ्जातम् इति उदाहरणद्वयम् अस्तु. तर्हि आहत्य निमित्तं सप्तमी विभक्त्यौ चेत् पूर्वकार्यं, निमित्तं पञ्चमी विभक्तौ चेत् परकार्यं, तृतीया विभक्तौ चेत् कार्यं पूर्वं वा परं वा भवति इति निमित्तस्य विषयः. निमित्तं नास्ति चेत् कार्यमेव न भवति इति अस्ति. अस्तु, पुनः करपत्रद्वयं गृहपाठत्वेन परिशीलयन्तु अग्रिमसप्ताहे स्वरसन्धिः सूत्रसहिता दृष्टिः इति लभ्यते.
भगिनि
धन्यवादः.
अस्ति केवलं पृच्छामि, अहं पूर्वं न दृष्टवती, सूत्रेषु द्वितीयविभक्ति चतुर्थीविभक्ति तस्य भिन्न अर्थः अस्ति वा?
नास्ति एव भगिनि, यावत् अहं जानामि द्वितीयां वा चतुर्थीं न दृष्टवती एव.
ओ अस्तु अस्तु,
तस्मिन् अपि सूत्रे न दृष्टवती. अस्तु,
धन्यवादः.
धन्यवादः.
धन्यवादः भगिनि.
धन्यवादः.